एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अधिकार दुरुपयोगानुसन्धानायोगेन नेपाल दूरसञ्चार संस्थानस्य तात्कालिक प्रबन्ध निर्देशकेन सुनिल पौडेलेन तात्कालिकेन प्रमुख व्यावसायिकाधिकृतेन सम्प्रति प्रबन्ध निर्देशक पदीयया संगीता पहाड़ी तेनया च सहितानाम् अष्टादश जनानाम् विरूद्धे विशेष न्यायालये आरोपपत्रम् पञ्जीकारितम् वर्तते। आयोगस्य प्रवक्तुः राजेन्द्र कुमार पौडेलस्य अनुसारेण नेपाल दूरसञ्चार संस्थानस्य जीएसएम दूरभाषायन्त्रस्य फाइबर इन्टरनेट अन्तर्जाल सेवाया लिज्ड प्रणाल्या तान्त्रिक प्रणाल्या तन्त्रिका रहित प्रणाल्याश्च अभिलेखीकरणे अवैधानिक रूपेण क्रयण विक्रयणं च विधाय अनियमिततया विहिता इत्यभियोगे आरोपपत्रम् पञ्जीकारितम् वर्तते। आयोगेन उपकरणानाम् क्रयणस्य विषये दुर्भावनया सार्वजनिक सम्पदा अपचलनम् विहितमस्तीति उल्लिखितम् वर्तते। आयोगेन दूरसञ्चार संस्थानस्य तात्कालिक प्रबन्ध निर्देशकस्य सुनिल पौडेलस्य प्रबन्ध निर्देशकस्य संगीता पहाड़ी इत्यस्याः तात्कालिक प्रमुख प्राविधिकाधिकृतस्य प्रतिभा श्रेष्ठस्य वित्तीयाधिकृतस्य राजेन्द्र श्रेष्ठस्य च विरूद्धे त्रयस्त्रिंशतः कोटीनाम् अष्टचत्वारिंशतो लक्षाणाम् च रूप्यकाणाम् हानिवित्तम् अभियाच्य आरोपपत्रम् पञ्जीकारितमस्तीति आयोगेन ज्ञापितम् वर्तते। परस्परं मिलित्वा सार्वजनिक संस्थानेभ्य क्षतिप्रापणस्य एकीकृत अभिलेखीकरण प्रणाल्याश्च कृते पञ्चवर्षीय सहमति दत्तासीदिति आयोगस्य आरोपो वर्तते। प्रधानमन्त्री केपी शर्मा ओली सत्ता सहकारी दलेषु कथं विदोपि मतभेदो नास्तीति स्पष्टीकरोति। अनेरा स्वब्युनाम्नः अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी संघटनस्य चतुर्दशस्य राष्ट्रिय महाधिवेशनस्य उद्घाटन समारोहम् पूर्वेद्यो कीर्तिपुरस्थाने सम्बोधयन् नेकपा एमाले दलस्य अध्यक्ष प्रधानमन्त्री च ओली स्थिरतायै सुशासनाय विकासाय च उचितनीत्याः अवलम्बनेन सर्वकारः अग्रे वर्धमानोऽस्तीति अवोचत। प्रधानमन्त्री ओली दलद्वयस्य सहमतेः अनुसारेण तत्परं त्रयोदश मासानां पश्चात् कांग्रेसदलाय सर्वकारस्य नेतृत्वस्य हस्तान्तरणं कृत्वा एमाले दलं सर्वकारे सहभागी भविष्यति इति च अवोचत। तदवसरे प्रधानमन्त्री ओली देशस्य विकासाय सूचना प्रविधौ अभ्यस्तैः पूर्व विद्यार्थिभिः युव विद्यार्थिभिः समृद्धो नेपाल सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षाया पूर्तये अग्रणी भूमिका निर्वोढव्येति बलं प्रादात्। त्रिभुवन विश्वविद्यालयस्य काष्ठमण्डपस्य महाराजगंजवर्तिनी शिक्षण चिकित्सालये प्रथमवारं सफलतापूर्वकं लिंग परिवर्तन सम्बद्धा शल्यक्रिया विहितास्ति। जनकपुरधाम्ना पञ्चवर्षीयायाम् एकस्याम् व्यक्तौ महिलायाः जननेन्द्रियस्य पुनः संयोजनं विहितमस्ति। चिकित्सालयस्य शल्यक्रिया विभागेन सेव ज्येष्ठमासस्य द्वादशात् पञ्चदशम् दिवसं यावत् पारालिङ्गिकानां समुदायानां कृते आयोजितायां शल्यक्रियायाम् एवं शल्यक्रिया सफलतापूर्वकं सम्पन्नास्ति। तदवसरे मुखाकृतेः स्तनयोश्च शल्यक्रिया विहितासीत्। चिकित्सालयस्य प्रवक्ता सह प्राध्यापकः गोपाल सेढै अधःपरं सेवेयं नेपाले एव नियमितरूपेण प्राप्यते इत्यतः एतस्मै कार्याय वैदेशिक गमनस्य बाध्यता समाप्तास्तीति अवोचत। शल्यक्रियायां वैदेशिक शल्यक्रिया विशेषज्ञस्य डाक्टर रजिला आमिडियन जाबरहोमी इत्यस्याः नेतृत्वे विभागीय प्रमुखस्य प्राध्यापकस्य डाक्टर जयनमान श्रेष्ठस्य संयोजने च सम्पूर्ण सम्बद्ध शल्यक्रिया समूहस्य सहभागिता आसीत्। कर्षकै अस्मिन् वर्षेऽपि आवश्यकताया अनुसारेण पर्याप्त रूपेण रासायनिक मलम् न प्राप्यते। राष्ट्रिय सभान्तर्गताया विकासार्थिक विषय सुशासन समिते ह्यस्तनोपवेशे कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी अस्मिन् वर्षे आपणेषु त्रयोदश लक्षाधिक टन परिमितस्य रासायनिक मलस्य आवश्यकता अस्ति, परं सर्वकारस्य पार्श्वे विद्यमानं सार्ध चतुर्लक्ष टन परिमितं रासायनिक मलम् एव प्रदेश सर्वकारस्य माध्यमेन सर्वेष् स्थानीय स्तरेषु वितीर्णमस्ति इति अगदत्। वित्तस्य अभावेन पर्याप्त रूपेण रासायनिक मलस्य आयातं कर्तुम् अशक्तम् अभूत् इति कृषिमन्त्री अधिकारी समस्पष्टयत्। विगतस्य तुलनायां प्राङ्गारिक मलस्य प्रयोगाय प्राथमिकता प्रदत्ता अस्ति इति चर्चयन् मन्त्री अधिकारी पूर्णता खाद्य स्वच्छतायां प्राप्तुं कतिपय अन्योपि समयः अपेक्षते इति अवोचत। दलेषु विमर्शनस्य सभामुखस्य देवराज घिमिरे विदस्य भूयो भूय प्रयासस्य च पश्चादपि सहमतेः धरणाभावात् प्रतिनिधिसभाया ह्यस्तनोपवेशोऽपि कार्यसूच्यां प्रवेशनेन विनैव स्थगितो वर्तते। भूयो भूय समयान्तरणं कृत्वा सायं षड्वादने ह्यस्तनोपवेशस्य प्रारभणस्य अनुपदमेव प्रतिपक्षिदलानां सांसदैः उत्थाय उपवेशे अवरोध सर्जनस्य पश्चात् सभामुखेन देवराज घिमिरे विदेन अपरोपवेशाद्यद्विवादनाय निर्धार्य ह्यस्तनोपवेश स्थगितकृत आसीत्। प्रवेशनाय देशान्तर पर्यटनाय देशान्तर प्रवेशानुज्ञा पत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य संलग्नता अस्ति इति आरोप्य गृहमन्त्रिणः त्यागपत्रम् अभियाच्य विपक्षिदलैः अस्यैव ज्येष्ठस्य द्वादशात् दिवसात् नियमितरूपेण प्रतिनिधिसभायाः उपवेशे अवरोधः सृज्यमानो वर्तते। हेटौडा काष्ठमण्डप योजकः कान्तिलोकपथः ह्यस्तनात् दिवसात् सञ्चालितो वर्तते। मकवानपुरस्य भीमफेदी ग्रामपालिकायाः अष्टमवडा क्षेत्रस्य बगुवा नद्यां अस्थायी सेतोः निर्माणस्य कार्यस्य समाप्तेः पश्चात् ह्यः पूर्वाह्नस्य एकादशवादनात् कान्तिलोकपथे पूर्णरूपेण यातायात साधनानां सञ्चालनं प्रारब्धमस्ति इति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकः श्यामु अरियालः असूचयत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति देशे प्रजातन्त्रस्य स्थापनायै योगदान प्रापकाणां व्यक्तिनां योगदानस्य देशव्यापी रूपेण प्रचारो विधेय। भक्तपुर जनपदे ह्य होतात्मा राधेश्याम जोन्छे स्मृति प्रतिष्ठानेन आयोजितायां जोन्छे विदस्य त्रयोदश्यां स्मृतिसभायां प्रतिष्ठानस्य नवनिर्मित भवनस्य उद्घाटन कार्यक्रमे च जोन्छे विदस्य प्रतिमाया अनावरणं कुर्वाणः सभापति देउवा जोन्छे विदेन प्रजातन्त्रस्य प्राप्तये महत् योगदानं प्रापितमस्तीति अस्मरत् इति समाचाराः।